इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी अद्य प्रभृति गुजरातस्य समीपस्थस्य केन्द्रशासितप्रदेशस्य दादरा नगर हवेली इत्येतस्य द्विदिवसीय यात्रायां याति। श्रीमोदी स्वयात्रा प्रवासी केन्द्रशासितप्रदेशे एतस्मिन् एकस्य चिकित्सालयस्य उद्घाटनम् अथ च विविध परियोजनानां शुभारम्भं विधास्यति। तदनु प्रधानमन्त्री श्व अन्ताराष्ट्रिय महिला दिवसावसरे नवसारीस्थले लखपति दीदी इत्यमुं सम्मेलनं सम्बोधयिष्यति। श्रीमोदी अद्य प्रातःकाले दादरा नगर हवेली इत्येतस्य शिलवासा नगरं सम्प्राप्स्यति तथा च सार्धचतुश्शत शयनासन युतस्य नमो इत्याख्यस्य चिकित्सालयस्य उद्घाटनं च करिष्यति। तत्र असौ 87.5 लाख करोड़ रूप्यकाणां 62 परियोजनानां उद्घाटनं शिलान्यासं च विधातुं सायली क्रीडांगणं प्रति यास्यति, यत्र श्रीमोदी एकां जनसभां सम्बोधयिष्यति। प्रधानमन्त्री अद्य सायंकाले सूरत खाद्य सुरक्षा संतृप्ति इत्येतस्मिन् अभियाने सहभागं करिष्यति। ततः परं असौ प्रधानमन्त्री गरीब कल्याणान् योजनायाः अन्तर्गतं प्रायशः 2 लाख संख्यकेभ्यः लाभार्थिभ्यः लाभान् वितरिष्यति। प्रधानमन्त्रिणा नरेन्द्रमोदिना निगदितं यत् भारतेन प्राप्तोपलब्धयः सफलताश्च सकले हि विश्वे आशायाः नवीन तरंगं जनयन्ति। असौ अवदत् यत् अद्य समग्रविश्वं कथयति यत् अयं हि भारतस्य युगो वर्तते इति। नवदिल्ल्याम् एकया सर्वकारीयेतर वार्तावाहिन्या आयोजितं कार्यक्रमं सम्बोधयन् श्रीमोदी प्रत्यपादयत् यत् भारतम् अद्य वैश्विक विकासाय गतिं प्रददाति अथ च विकास सपथे नैरन्तर्येण जवीयगत्या वर्धमानं विद्यते। असौ अग्रे प्रावोचत् यत् विगतैक दशके भारतं पञ्चमी बृहत्तमा अर्थव्यवस्था जातं, तृतीयां च बृहत्तमां अर्थव्यवस्थां भवितुं जवीयगत्या अग्रे गच्छदस्ति। असौ अवदत् यत् सौरशक्ति सामर्थ्ये भारतं पञ्चसु प्रमुखेषु देशेषु अन्यतममस्ति। अद्य जनौषधि दिवसो वर्तते। अयं दिवसः योजनायाः विषये जागरूकता संवर्धनाय जेनेरिक इत्येतासां औषधीनाम् उपयोगाय च आचर्यते। सर्वेभ्यः सुलभ मूल्ये गुणवत्तायुतानि जेनेरिक इत्येतानि औषधानि उपलब्धयितुं प्रधानमन्त्री भारतीय जनौषधि परियोजनायाः लक्ष्यं वर्तते यत् गुणवत्तापूर्वकानि एतानि औषधानि सुलभाल्पमूल्ययोः उपलभ्यन्ते इति। केन्द्रीय वैद्युतिकीय सूचना प्रसारण मन्त्री अश्विनी वैष्णवः प्रतिपादितवान् यत् आगामीषु 3-4 च वर्षेषु भारतं स्वस्य ग्राफिक्स प्रोसेसिंग यूनिट इति विकसितं करिष्यति। असौ अग्रे अवोचत् यत् भारतस्य एआई मॉडल कम्प्यूटेशन जीपीयू इत्येतस्य विश्वे न्यूनतम मूल्यम् अस्ति, यद्धि च 40% सर्वकारीयानुदानस्य अनन्तरं प्रायशः 67 रूप्यकाणि प्रतिहोरां यावदस्ति। नवदिल्ल्यां कृत्रिम बुद्धिमत्तया एआई इत्येतया सम्बद्धानां कोषान्तरजाल पटल पदक्षेपाणां शुभारम्भं श्रीवैष्णवः कृतवान्। केन्द्रीय गृहविषयक राज्यमन्त्री नित्यानन्द रायः ह्यः नवदिल्ल्यां जनजातीय युव विनिमय कार्यक्रमस्य TYEP इत्येतस्य अन्तर्गतं प्रायशः 200 जनजातीय युवभिः सह वार्तालापम् अकरोत्। छत्तीसगढ़ ओडिशा राज्ययोः आदिवासी जनपदयोः एते युवानः सम्प्रति राष्ट्रिय राजधान्यां भ्रमणं कुर्वन्तः सन्ति। एतैः जनजातीय युवकैः सह संवादं कुर्वता केन्द्रीय मन्त्रिणा उक्तं यत् देशस्य वामपक्षोग्रवाद प्रभावित जनपदेषु बहूनि विकासकार्याणि विहितानि सन्ति, अपि च मार्गाणां रेलमार्गाणां च जालस्य विकासः जातः, अपरत्र एतेषु जनपदेषु नूतनाः विद्यालयाः उद्घाटिताः च। विमेन्स प्रीमियर लीग इत्येतस्यां क्रिकेट मालिकायां ह्यः रात्रौ लखनऊ नगरे मुम्बई इण्डियंस दलेन यूपी वॉरियर्स इत्येतद्दलं 6 क्रीडकानां हानिपुरस्सरं पराजितम्। अद्य लखनऊ नगरे एव गुजरात जायंट्स डेल्ही कैपिटल्स दलयोर्मध्ये द्वन्द्वं भविष्यति। इति वार्ताः।